सर्वेषां स्वागतं प्रार्थनया आरम्भं कुर्मः अस्तु वदतु भगिनि
शुक्लाम्बरातरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नावदनं ध्याये सर्वविघ्नोपशान्तये सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुसाक्षात् परं ब्रह्म तस्मै श्रीगुरुवे नमः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः।
धन्यवादः भगिनि।
अहं
पठतु भगिनि।
रामो राजमणि सदा विजयति रामं रमेशं भजे रामेणाभिहता निशाचरचमु रामाय तस्मै नमः रामान्नास्ति परायणं परतरं राम सदा सोऽस्म्यहम् रामे चित्तलय सदा भवतु मे भो राम माम् उद्धर।
उत्तमं भगिनि, धन्यवादः। अद्यतन सुभाषितम् एवम् अस्ति, कोऽपि पठितुमिच्छति वा? सविता भगिनि पठितुमिच्छति वा?
आं भगिनि, अहं पठामि।
पठतु।
आं भगिनि। दुर्जनः प्रियवादिं च नैताद्विषवासकारणं मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम्। दुर्जन यद्यपि प्रियवचनं वदति तदापि दुर्जने विश्वासनयोग्यः न उचितः यतः तेषां जिह्वाग्रे मधुं परं तेषां हृदये विषं वसति।
अस्तु। दुर्जनः प्रियवादी च नैतद् अत्र न एतत् न एतत् विश्वासकारणम् सो प्रियवादी इति कारणात् विश्वासं मा करोतु, दुर्जने विश्वासं मा करोतु। प्रियवादी इति अस्ति चेतपि दुर्जने विश्वासं मा करोतु, तेन प्रियवादी इति कारणेन विश्वासं मा करोतु। किमर्थं? मधु तिष्ठति जिह्वाग्रे इत्युक्ते सम्यक्तया वदति, मधुवचनं वदति, परन्तु हृदये तु हलाहलं, हलाहलम् इत्युक्ते विषम्। दुर्जनः यद्यपि प्रियवचनं वदति तथापि दुर्जने विश्वासः न योग्यः न उचितः न करणीयः यतः तेषां जिह्वाग्रे मधु वसति, मधु भवति, परन्तु परं तेषां हृदये विषं वसति। अतः तादृशजनेषु विश्वासः न करणीयः इति। सुलभः खलु? सुलभसुभाषितमेव। अस्तु, अग्रे गच्छामः। नूतनगीतमस्ति एकवारम् अत्र
कृत्यासुरम्यं विशालं प्रकामं सरितारहारैललामं निकामं हिमाद्रे ललाटे पदे चैव सिन्धुः प्रियं भारतं सर्वथा दर्शनीयम् प्रियं भारतं सर्वथा
एकवारं गायामः वा प्रकृत्यासु रम्यं विशालं प्रकामम् प्रकृत्यासु सरितारहारैः ललामं निकामम् हिमाद्रिर्ललाटे पदे चैव सिन्धु प्रियं भारतं सर्वथा दर्शनीयम् अग्रे
दर्शनीयं धनानामिधानं धरायां प्रधानम् इदं भारतं देवलोकेन तुल्यं यशो यस्य शुक्रं विदेशेषु गीतम् प्रियं भारतं सदा
पूजनीयं धनानां निधानं धरायां प्रधानम् इदं भारतं देवलोकेन तुल्यम्
धरायां प्रधानम्
उच्चैः
धरायां प्रधानीयं धनानां निधानम्
इदं भारतं अत्रैव उच्चैः यशो यशो विदेशेषु प्रियं भारतं पुनरेकवारं शृणुमः
धरायां प्रधानम् इदं भारतं देवलोकेन तुल्यं यशो यस्य शुक्रं विदेशेषु गीतं प्रियं भारतं तत्सदा पूजनीयम् प्रियं भारतं तत्सदा पूजनीयम् अनेके प्रदेशा अनेकानि रूपाणि भाषा अनेका परं
अनेके प्रदेशा अनेके देशा अनेकानि रूपाणि भाषा
अनेका
परं यत्र सर्वे वयं भारतीयाः प्रियं भारतं
सदारक्षणीयं प्रियं भारतं सदारक्षणीयं सुखी राजनाय त्रयुक्तेषु वीरा शरीरार्पणेनापि रक्षन्ति देशं स्वधर्मानुरक्ता सुशीलाश्च नार्यः प्रियं भारतं तत् सदा श्लाघनीयं प्रियम्
धीराजनाय युद्धे शरीरार्पणेनापि रक्षन्ति देशम् स्वधर्मानुरक्ता सुशीलाश्च नार्यः प्रियं भारतं तत् सदा श्लाघनीयम् प्रियं अन्तिमं
भारतं तत् सदा श्लाघनीयम् वयं भारतीया स्वभूमिं नमाम परं धर्ममेकं सदा मानयाम यदर्थं धनं जीवनं चार्पयाम प्रियं भारतं तत् सदा वन्दनीयं प्रियं भारतं तत् सदा वन्दनीयम्
वयं भारतीया स्वभूमिं वयं भारतीया परं धर्ममेकं सदा मानयाम परं यदर्थं धनं जीवनं चार्पयामः भारतं तत् सदा वन्दनीयम् प्रियं भारतं प्रियं भारतं तत् सदा
वन्दनीयम्
अस्तु सम्यक् इदानीम् अग्रे गच्छामः अद्य नूतनविषयः अस्ति सो अतः कथा नास्ति कथा पुस्तके एव एका कथा अस्ति तां कथां पठामः भ्रातृमेलनम् इति कथा अस्ति गीतासोपाने तत् पश्यामः प्रथमं तु धातु इति अस्ति चेत् परस्मैपदी एव वयं पठितवन्तः परस्मैपदी धातु थि इति अन्ते भवति गच्छति खादति लिखति पिबति पठति शोभति इति अत्र रूपाणि प्रथमपुरुषरूपाणि भवन्ति अन्ति इति रूपाणि एवं भवन्ति धातु इति अस्ति चेत् धातु त्रिविधा भवन्ति त्रिविधा एकविधम् अस्ति परस्मैपदी धातु अन्यत् एकमस्ति आत्मनेपदी धातु आत्मनेपदी धातु क्रियापदं वन्दते धातु अस्ति वन्द, परन्तु रूपम् अस्ति क्रियापदरूपम् अस्ति वन्दते, ती न भवति ते भवति, वन्दते लभते, ईक्ष ईक्षते, लज् लज्जते, मन् मन्यते, शुभ शोभते इति. सो अत्र रूपाणि ते, अत्र इ इति अस्ति परन्तु योजयित्वा एते भवति, ते एते अन्ते, वन्दते वन्देते वन्दन्ते इति भवति, वन्दते वन्देते वन्दन्ते. केचन जातवः धातवः परस्मैपदीरूपमपि स्वीकरोति, आत्मनेपदीरूपमपि स्वीकरोति, अतः उभयपदी धातवः इति वदामः. उभयपदी परस्मैपदी पचति, याचति, करोति इति. आत्मनेपदी अस्ति पचते, याचते, कुरुते, धावते, भक्षते इति. इति रूपद्वयं भवति. अस्तु, एकवारम् एतत् पश्यामः. ते एते अन्ते, से एथे द्वे, ए आवा आवहे आमहे इति इति भवति. सो अत्र सः धातु स्वीकुर्मः चेत् सहते, सहेते, सहन्ते, सहसे, सहेथे, सहद्वे, नूतनरूपं भवति सहद्वे, सहे, सहावहे, सहामहे. यथा तीतः अन्ति, सीतः थ, मीवः मह इति परस्मैपदी धातवः. परस्मैपदी धातूनां रूपाणि एवं भवति, परन्तु आत्मनेपदी धातौ धातूनां रूपाणि एवं भवति. सहते, सहेते, सहन्ते, सहसे, सहेथे, सहद्वे, सहे, सहावहे, सहामहे इति.
कृपया
अस्तु अस्तु, साधारण वाक्यमेव. वयं गीतासोपाने पश्यामः वा अहम्. अस्तु, सो अत्र बालकः नमति, बालकः देवं नमति, बालकौ देवं नमतः, बालकाः देवं नमन्ति. परन्तु वन्द् धातु उपयुज्य बालकः देवं वन्दते, बालकौ देवं वन्देते, बालकाः देवं वन्दन्ते एवं भवति. त्वं वन्दते. वदतु
भगिनी, प्रेषयतु दिस् टेबल्.
निश्चयेन निश्चयेन, प्रथमं पाठयामि अनन्तरं
प्रेषयामि. And if it is Atmanepadi, the prayer is done by the boy.
No, no, no. The boy prays eva. Balakaha vandate.
Okay, okay. So what exactly, so there is no difference as such in the formation of the sentence, is it, Bhagini?
Ma'am, there is no difference. There is no difference.
Okay.
It's just two different categories of dhatu.
Oh, I see.
In one category, the endings will be ti. The other one, endings will be te, like that.
Okay, okay. Got it, Bhagini. Dhanyavada.
Yeah, okay, okay. So, we go to Gita Sopanam and then we'll come back here. Astu, va? So, astu. Vayam etat pariyantam kritavantaha purvam. So, atra etan shlokan patatha अत्र प्रयुक्तानि क्रियापदानि परिशीलयत, केवलं क्रियापदानि. सो परिपृच्छति ति, कुरुक्षेत्रे समायाताः किम् अकुर्वत, किम् अकुर्वत, लङ्लकाररूपम् अग्रे अग्रे पश्यामः. सो अत्र गच्छति, परन्तु उपसङ्गते ब्रूते निबोधयति. सो अत्र मिश्रणं कृत्वा अपि वक्तुं शक्नुमः. ओके, परस्मैपदी आत्मनेपदी धातु मिश्रणं कृत्वा वक्तुं शक्नुमः. ततो रतस्थितः कृष्णः पाञ्चजन्यं दमति. अहो दमति, अन्य कुत्र अस्ति दमन्ति?
स्थापयति.
स्थापिते स्थापिते स्तन्दे, दिस् इस् डिफ्रेन्स्. स्थापिते स्यन्दने, दिस् इस् लैक् सति सति सप्तमे, सति सप्तमे. निरीक्षते
जायते, वेपथूर् जायते,
जायते,
भ्रमति,
वेक्षते, वर्धते,
विसृज्यति, विसृज्यति, विसृज्यति,
विसृज्यति, यति,
उपविशति,
वेक्षते,
वेक्षति,
वेक्षते,
वर्धते,
विवर्धते,
विवर्धते,
भाषते,
भुञ्जे, भुञ्जे, काङ्क्षते,
भुञ्जते,
पाषते,
पाषते,
भाषते,
हन्मनिति,
हन्मिति,
हन्मि,
शृणुते,
उपविशति,
शोचति,
शोचते,
प्रणश्यति,
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 निन्दते,
अनुतिष्ठति,
अनुतिष्ठति, कुर्वन् अनुतिष्ठति,
कुर्वन् अनुतिष्ठति, युध्यते, अधि अधीते, अधीते,
आप्नोति,
आप्नोति,
अधीते, अधीते, सम्यक्. तो एवम् आत्मनेपदी धातु परस्मैपदी धातु मिश्रणं कृत्वा वक्तुं शक्नुमः एकस्मिन् वाक्ये अपि. अतः अत्र एवमेव करणीयम् इति नियमः नास्ति. सो एतत् लघु कथं पठामः. आत्मनेपदीनां धातूनां परिचयः. लट्लकारः, लट्लकारः इत्युक्ते वर्तमानकालः, भ्रातृमेलनम्, आञ्जनेयः, भीमः, भ्रात्रोः मेलनम् अत्र भवति. अस्तु, विष्णुमहोदय आरम्भं करोति वा?
आं भगिनि. एतां कथाम् उच्चैः पठत अवगच्छत् च पाण्डवाः वनवासम् आचरन्तः बदरिकाश्रमम् आगताः. द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते. द्रौपदी अपि विहरन्ति मोदते
मोदते अस्तु महोदय एकनिमिषं पाण्डवाः वनवासम् आचरन्तः भदरीकाश्रमम् आगताः सो अत्र आचरन्तः इति वदामः शत्रु प्रत्यय शत्रुप्रत्यय कथं भवति वैल् डूयिङ्ग् एतादृशं सो अत्र आचरन् पाण्डवः आचरन् पाण्डवाः आचरन्तः बहुवचनं वनवासम् आचरन्तः वैल् डूयिङ्ग् इट् भद्रिकाश्रमम् आगताः अथवा आगतवन्तः आगताः त प्रत्यय आगतवन्तः तव तु प्रत्यय द्रौपद्या सहिताः सो अत्र सहिताः इति पाण्डवाः इति पदस्य विशेषणं द्रौपद्या सहिताः ते कीदृशते द्रौपद्या सहिताः ते सो दिस् इस् अ विशेषणम् आफ् ते द्रौपद्या सहिताः ते प्रश्नः वा अस्तु सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु सो इन् ब्यूटिफुल् रमणीयेषु काननप्रदेशेषु अत्रापि विहरन् रमते इफ् इट् इस् एकवचनं विहरन् रमते अत्र विहरन्तः रमन्ते रमते रमेते रमन्ते रमते रमेते रमन्ते एवं भवति रमेते रमते रमेते रमन्ते इति भवति अस्तु द्रौपदी अपि विहरन्ती मोदते मोदते इति एकवचनं सो दिस् इस् आल्सो शत्रुप्रत्यय पुल्लिङ्गे आचरन् इति भवति पाण्डवः आचरन् आगतवान् परन्तु अत्र स्त्रीलिङ्गे विहरन्ती मोदते आचरन् स्त्रीलिङ्गे आचरन्ती दीर्घं भवति विहरन्ती मोदते एकवचनं त्रीणि रूपाणि कथं भवति मोदते मोदेते मोदन्ते मोदते मोदेते मोदन्ते अस्तु सो अत्र परस्मैपदी धातु समान अर्थक धातु भवति खलु विहरन्ति आनन्दम् अनुभवति अस्तु अग्रे श्रीनिवास महोदय
एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पं ईक्षते तत् सौगन्तिकं कमलम् इति सा जानीते सा तादृशानि अधिकानि पुष्पाणि काम्यते अतः सा पतिं भीमसेनं प्रार्थयते भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु
इति सम्यक् सो एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् ईक्षते वायुना आनीतम् इत्युक्ते किं वायुः फ्लायिङ्ग् वायुः आनयति वायुः आनयति वायुना आनीतं सुन्दरं पुष्पं पुष्पम् इति नपुंसकलिङ्गम् अतः आनीतम् एकं सुन्दरं पुष्पम् ईक्षते इत्युक्ते पश्यति वि केन् आल्सो से एकदा द्रौपदी सुन्दरं पुष्पं पश्यति परन्तु No, we cannot say drishyate, pashyate eva.
Iksha dhatu.
Iksh dhatu, ikshate. Ikshate, ikshete, ikshate. Tat saugandikam kamalam iti sa janite. So, atra nya dhatu, ubhayapadi dhatu. Janati, sa janati iti parasmaipadi dhatu. Parantu janite iti atmane padi dhatu. Sa janite, janite bhinna rupam bhavati. Agre pashyamah.
Bhagini?
Shamyata. Vadatu bhagini.
Vayuna tritiya vibhakti.
Tritiya, by the wind.
By.
By the wind anitam pushpam ikshate.
Bhagini, anitam is what form?
Anitam is like the ta pratyaya. Dvitiya
vibhakti.
Napumsakalinga. Dvitiya vibhakti. Ekam sundaram pam pashyate. Atava ikshate. Sa tadrishani adhikani pushpani kamayate. Kamayate. Ichchati. Atah sa patim bhimasenam prartayate. Prartayate. Prichchati. Yachati. Bhagini? Astu. Bhavan etadishani anyani bahuni pushpani anayatu iti. अस्तु सम्यक् शारदा भगिनी अग्रे
भीमसेनः गदापान्
अस्तु पठति वा भगिनी शारदा भगिनी अस्तु जयश्री भगिनी पठति वा
आं भगिनी भीमसेनः गदापाणिः संप्रतिष्ठते ताम् एव दिशं गत्वा सः गन्धमाद मदन पर्वते सर्वत्र मृगयते सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते अग्रे गतः भीमसेनः कदालिवनम् आलोकते तत्र हनुमान् निद्रावशगः आसीत् सः स्वर्गद्वारम् आवृत्य शोते स्म
शेते स्म
भीमसेनः तस्य समीपं गत्वा सहनन्दं सिंहनादं कुरुते तदा हनुमान् लोचेन ईषद् उन्मील्य स्मयते ततः भाषते च किमर्थं सुखसुप्तम् माम प्रबोधयसि त्वं कः किमर्थम् आगतः एषः देवलोकस्य मार्गः वर्तते अत्र मनुष्याणां प्रवेशय अनुमतिः न विद्यते इति.
धन्यवादः भगिनि. तत्र भीमसेनः गदापाणिः सन् इत्युक्ते गदापाणि इत्युक्ते पाणि इत्युक्ते हस्तः गदाहस्तः सन् 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 अपि शत्रुप्रत्यय इव गदापाणि सन् प्रतिष्ठिते प्रतिष्ठते इत्युक्ते स्थिरं तिष्ठति स्थिरं तिष्ठति भीमसेन सेनः तामेव दिशं गत्वा सः गन्धमादनपर्वते सर्वत्र मृगायते मृगयते मृगयते इत्युक्ते अटनं करोति कुत्र अस्ति इति अन्वेषणं करोति मृगयते इति अन्वेषणं करोति तामेव दिशं गत्वा कुत्र भीमसेनः तामेव दिशम् इत्युक्ते कां दिशं वायुः वायुः अत्र प्रवहति खलु वायु वाति तां दिशं वायुदिशं कुतः पुष्पम् आनयति इति ऊहं कृत्वा तां दिशं गत्वा सः गन्धमादनपर्वते इति पर्वतस्य नाम गन्धमादनपर्वते सर्वत्र मृगयते मृगयते इत्युक्ते अटनं करोति अन्वेषणं करोति अन्वेषणं करोति मृगयते मृगयेते एवं भवति सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते सात्र अपि ईक्षते निरीक्षन्ते समान अर्थकपदम् ईक्षते पश्यन्ति निरीक्षन्ते कुतूहलेन सः कः इति कुतूहलेन अस्तु अग्रे गतः भीमसेनः कदलीवनम् आलोकते आलोकते अपि समान अर्थकपदं निरीक्षते आलोकते अवलोकते पश्यति इति तत्र हनुमान् निद्रावशग्रह इत्युक्ते शयनं कुर्वन् आसीत् सः स्वर्गद्वारम् आवृत्य शेते स्म स्वर्गद्वारम् इत्युक्ते सः यं मार्गं गन्तुम् इच्छति तं मार्गम् आवृत्य मार्गः एवम् अस्ति हनुमान् एवं शयनं करोति मार्गे शयनं शेते अत्रापि आत्मनेपदि शयनं करोति शेते भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते सिंहनादम् इत्युक्ते भवान् कः इति सिंहनादं गर्जते कुरुते करोति अपि वक्तुं शक्नोति सिंहनादं करोति कुरुते उभयपदि धातु कुरुते कृ धातु तदा हनुमान् लोचने ईषत् ईषत् इत्युक्ते किञ्चित् नेत्रे किञ्चित् उन्मील्य लिटिल् बिट् ओपन् स्मयते स्मयते इत्युक्ते स्मयते स्मयते मन्दहासं करोति ततः भाषते इत्युक्ते वदति किं वदति किमर्थं सुखसुप्तं मां प्रबोधयति यु डिस्टर्बिङ्ग् मै स्लीप् सुखसुप्तं मां प्रबोधयसि त्वं कः किमर्थम् आगतः एषः देवलोकस्य मार्गः वर्तते इत्युक्ते अस्ति मार्गः अस्ति देवलोकस्य, देवलोकं प्रति गच्छति भीमसेनः, देवलोकस्य मार्गः वर्तते, अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते. विद्यते अपि समानार्थकपदं, वर्तते विद्यते इति. अस्तु अग्रे अग्रे का शारदा भगिनी, इदानीं सम्यक् वा भवत्या?
श्रूयते वा भगिनी? तदा भीमसेनः कुन्तिपुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि, मम उत्तिष्ठ मार्गं प्रयच्छ इति.
अग्रे अपि पठतु.
हनुमान् वदति, अहं व्याधिपीठतः पीडितः अस्मि, अतः उत्थातुं मम शक्तिः न विद्यते. यदि त्वया अवश्यं तर्हि मां लङ्घयित्वा गच्छ इति.
लङ्घयित्वा गच्छ इति. अस्तु. तदा भीमसेनः ब्रूते, ब्रूते इत्युक्ते वदति, भाषते अपि समान वदति, ब्रूते भाषते समान अर्थकपदं. ब्रूते अहं कुन्तीपुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि, इच्छामि कामायते अपि वक्तुं शक्नुमः खलु, अत्र कामयते इच्छामि, कामये. अस्तु पुत्र. अस्तु. गन्तुम् इच्छामि, त्वम् उत्तिष्ठ मार्गं प्रयच्छ, मार्गं ददातु इति. ददातु, यच्छ ददातु, यच्छतु ददातु. हनुमान् वदति, अहं व्याधिपीडितः अस्मि, मम व्याधिः अस्ति, अहं व्याधिना पीडितः अस्मि, अतः उत्थातुं मम शक्तिः न विद्यते, नास्ति, मम शक्तिः नास्ति. यदि त्वया अवश्यं गन्तव्यं, सो अत्र कर्मणि प्रयोगः अभवत्, अत्र तृतीया विभक्ति, त्वया अवश्यं निश्चयेन गन्तव्यं, तर्हि मां लङ्घयित्वा गच्छ. लङ्घयित्वा इत्युक्ते अहम् अत्र शयनं करोमि, मम उपरि लङ्घनं कर्, यथा समुद्रं लङ्घयित्वा गतवान् हनुमान्, तादृशं भवान् गच्छतु, लङ्घयित्वा गच्छ इति वदति. अस्तु. यच्छ, यच्छ मीन्स् टु गिव्, याचति इस् टु आस्क्, यच्छ.
ओके. प्रयच्छ वुड् ददाति,
ददाति.
ओके.
श्लोकमस्ति खलु,
प्रयच्छ प्रयच्छ.
विना वेङ्कटेशं,
विना वेङ्कटेशं, ननातो ननातो
सदा सदा वेङ्कटेशं स्मरामि,
स्मरामि प्रियं वेङ्कटेशं,
प्रयच्छ प्रयच्छ.
धन्यवादः. आम् आं भगिनि.
उत्थातुं तुमुन् प्रत्यय.
आम् आम्, उत्थातुं.
धन्यवादः.
उत्तिष्ठतु इति धातु, उत्स्तात् स्था धातु, परन्तु उत्थातुम् इति रूपं भवति तुमन्. उत्थातुं मम शक्तिः नास्ति, यदि त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति. अस्तु अग्रे.
लङ्घयित्वा कूदके,
लङ्घयित्वा मीन्स् टु जम्प् ओवर् मी लैक् देट् ओवर् मी
कूदके,
In Hindi it is lang lang ke jana bhagini. In Hindi they say lang ke jana. Jump over.
Jump over.
Kudaitva?
Upari.
Upari gacha. Yeah. Kurd means jump. Astu agre. Lata bhagini.
परमात्मा देहं व्याय अवतिष्ठते इति अहं जाने तव लङ्घनस्य अवमाननं कर्तुं न उच्यते अन्यथा हनुमान् सागरमिव त्वां लङ्घयित्वा अच्छेयम् इति
अस्तु सो अत्र भीमसेनः वदति परमात्मा देहं व्याप्य इत्युक्ते देहे परमात्मा अस्ति व्याप्य इत्युक्ते स्प्रेड् एव्रीवेर् व्याप्य परमात्मा देहं व्याप्य अवतिष्ठते सो गाड् इस् एव्रीवेर् इन् द देहं व्याप्य परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने अहम् इति रूपम् एवं भवति जाने तव लङ्घनेन तस्य कस्य परमात्मनः तस्य अवमाननं कर्तुं न उत्सहे स्वरूपम् एवम् अस्ति जाने उत्सहे अत्र तेन भवति अहम् इति अस्ति चेत् तेन भवति जाने मन्ये एवं भवति
भगिनी व्याप्य ल्यप्
ल्यप् ल्यप् अन्यथा अन्यथा मीन्स् अदर्वैस् अन्यथा हनुमान् सागरम् इव अहं त्वां लङ्घयित्वा गच्छेयम् नूतनरूपम् अग्रे पश्यामः किम् एतत् इति किम् कर्तुं न उत्सहे मीन्स् ऐ डोण्ट् वाण्ट् टु ऐ विल् नाट् टालरेट् दट् इति अपमानं कर्तुं न उत्सहे उत्साहं न अनुभवामि इति
अवमाननम् इति अर्थः अपमानम्
अपमानं कर्तुं न इच्छामि
भगिनी न उत्सहे डस् नाट् मीन् नाट् एन्क्यूस्ड् उत्सहे इस् नाट् डिरैव् फ्रम् एन्क्यूस्ड् इट् इस् मोर् नाट् विलिङ्ग् टु
नाट् विलिङ्ग् टु नाट् विलिङ्ग् अन्यथा अदर्वैस् हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयम् ऐ विल् जम्प् ओवर् यु बट् गाड् इस् विदिन् एव्रि देहम् इति सः वदति अस्तु वीणाबेन् भगिनी
आं भगिनि हनुमान् पृच्छति कः सः हनुमान् किमर्थं सः सागरं लङ्घितवान् इति
अस्तु अग्रे अपि पठतु भगिनि
हनुमान् मम भ्राता रामायणे सः अतिविख्यातः रामपल्याः सीतायाः रामपत्न्याः क्षम्यतां रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजन् विस्तृतं सागरं लङ्घितवान् अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते इति साभिमानं वदति भीमसेनः अन्ते मार्गं प्रयच्छ इति पुनरपि वदति
पुनरपि वदति अत्र सः पृच्छति कः सः हनुमान् किमर्थं सः सागरं लङ्घितवान् इति हनुमान् मम भ्राता रामायणे सः अतिविख्यातः विख्यातः इत्युक्ते प्रसिद्धः रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजनविस्तृतं विस्तृतम् इत्युक्ते वैड् शतयोजनविस्तृतं सागरं लङ्घितवान् लङ्घितवान् अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते तेन तुल्यः तृतीया विभक्ति भवति तेन तुल्यः बले अहमपि बलवान् हनुमान् इव बलवान् पराक्रमविषये अपि अहं तेन तुल्यः युद्धे तेन तुल्यः वर्ते मीन्स् अस्मि इति अस्मि तेन तुल्यः अस्मि इति सा अभिमानम् इत्युक्ते सेल्फ् कान्फिडेन्स् वदति भीमसेनः अन्ते मार्गं प्रयच्छ इति पुनरपि वदति अवगच्छन्ति खलु नो चेत् पृच्छन्तु सो समान जनकः खलु वायुपुत्रः ब्यूटिफुल् खलु अस्तु अग्रे वीणाबेन् भगिनि
हनुमान् वदति जरया मम उत्थातुं शक्तिः नास्ति त्वमेव अनुकम्पया एतत् पुच्छं भगिनि कि पृच्छं
पुच्छमेव टेल्
पुच्छं अपसार्य गच्छ इति भीमसेनः
वदतु भीमसेनः
पुच्छे गुहित्वा एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति ततः सः अवयग्ना वामहस्तेन पुच्छं गुहितवान् किन्तु तत् पुच्छं किञ्चिदपि न कम्पति अधुना भीमसेनः बाहुभ्यां पुच्छम् उक्षिप्तुं प्रयतते तथापि पुच्छं न कम्पति भीमसेनस्य शरीरं स्विद्यते
हनुमान् वदति जरया मम उत्थातुं शक्तिः नास्ति त्वमेव अनुकम्पया एतत् पुच्छम् अपसार्य इत्युक्ते रिमूव् इट् इति अपसार्य इतः त्यक्त्वा मम पुच्छं त्यक्त्वा गच्छ इति भीमसेनः वदति पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि यमलोकम् पुच्छे गृहीत्वा अहम् एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति ततः इत्युक्ते अग्रे अनन्तरं सः अवज्ञया वामहस्तेन अवज्ञया इत्युक्ते वेरि क्याजुवलि वामहस्तेन पुच्छं गृहीतवान् किन्तु तत् पुच्छं किञ्चिदपि न कम्पते इत्युक्ते टु मूव् अधुना भीमसेनः बाहुभ्यां इन् टू हेण्ड्स् बाहुभ्यां पुच्छम् उत्क्षेप्तुं पुच्छम् एकनिमिषम् अस्तु बाहुभ्यां पुच्छम् उत्क्षेप्तुं प्रयत्नते प्रयत्नं कृतवान् तथापि पुच्छं न कम्पते भीमसेनस्य शरीरं स्विद्यते स्विद्यते इत्युक्ते स्वेटिङ्ग् स्विद्यते स्वेदनम् अस्तु अग्रे सन्ध्या भगिनि जरया इत्युक्ते लैक् ओल्ड् एज् किं किं महोदय वृद्धत्वं सम्यक् वृद्धत्वं जराव्याधि इति वदामः खलु जराव्याधि
भीमसेनस्य शरीरं विद्यते पुनः पुनः प्रयत्नेनापि सः विफलः जायते सः नितरां लज्जते अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते कपिशार्दूल मां क्षमतां वानररूपद्वित् भवान् सिद्धः देवः गन्धग्रह वा कः इति वदतु अहं शिष्यवत् भवन्तं पृच्छामि कृपया वदतु इति
अस्तु पुनः पुनः प्रयत्नेन अपि सः विफलः विफलः अन्सक्सेस्फुल् जायते बिकेम् जायते बिकेम् भवति विफलः भवति विफलः जायते सः नितरां लज्जते एम्बेरस् नितरां मीन्स् वेरि नितरां लज्जते अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते प्रार्थनां करोति कपिश आर्दूल इत्युक्ते श्रेष्ठ मां क्षमतां वानररूपदृक् भवान् सिद्धः वानररूपे अस्ति परन्तु सिद्धः देवः गन्धर्वः वा भवान् कः इति वदतु अहं शिष्यवत् भवतः शिष्यः अहं भवन्तं पृच्छामि कृपया वदतु इति अस्तु अन्तिमम् उर्मिला भगिनी
तदा हनुमान् स्वस्य परिचयम् उक्तवान् भीमसेनः भक्त्यां तं नमस्कृतवान् हनुमान् प्रीत्या तम् आलिङ्गितवान् ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान् अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हितः अभवत्
तदा हनुमान् स्वस्य परिचयम् उक्तवान् परिचयम् इस् हिस् इन्ट्रडक्षन् परिचयम् उक्तवान् भीमसेनः भक्त्या तं नमस्कृतवान् हनुमान् प्रीत्या तम् आलिङ्गितवान् ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्य रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान् इत्युक्ते लैक् विश्वरूपम् इव दर्शितवान् अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हितः अन्तर्हितः इत्युक्ते हि डिसप्पियर्ड् इति अन्तर्हितः अभवत् अदृश्यः अभवत् सः
भगिनि
आं भगिनि
If you have all watched our childhood favorite film Maya Bazaar, the scene is there again in that scene.
Yeah, this is a very popular scene. Yeah.
Yes, very good.
Bhagini, anugrahya is to receive or to give?
To give.
To give. Oh, so he gave Ashirvadam and disappeared.
अनुग्रहणम् अनुग्रहं karoti, like that.
So it is the opposite of grahanam. Grahanam is to receive, right? So anu prasya is to give.
Yeah, grahanam, but this is just graham eva, anu graham.
Oh, okay. Dhanyavad.
Dhanyavad. So atra abhyasah evam asti. So atvane paridhatu atra likhatu iti ramante modate ikshate
janite
janite
kamayate
prarthayate prarthayate
pratishthate mrugayate
mrugayate
nirikshante
nirikshante
shete alokate
alokate shete
kurute
ayate
mayate
vasate
sasati vartate
vidyate
vidyate
अवतिष्ठते
तिष्ठते जाने
जाने उत्पत्ते वर्ते
वर्ते
कंपते
प्रयतते
तते पुनः कंपते
स्विद्यते
यतिद्यते जायते
लज्जते प्रार्थयते
प्रार्थयते
अत्र मुद्रितानि स्थूलाक्षरैः स्थूलाक्षरैः मीन्स् बोल्ड् प्रिण्ट् अस्मिन् पाठे स्थूलाक्षरैः मुद्रितानि पदानि अत्र लिखत रमन्ते इति एतानि सर्वाणि आत्मनेपदि क्रियापदानि सन्ति अस्तु किम् एतत् इति अत्र पश्यामः एतानि वाक्यानि सावधानतया उच्चैः पठत परिशीलयत च अन्य कोऽपि अस्ति वा यस्य नाम अहं न उक्तवती
आं भगिनि अहं चम्पा
चम्पा भगिनि अन्य
निर्मला
अस्तु अस्तु चम्पा भगिनी निर्मला भगिनी अन्य नास्ति अस्तु चम्पा भगिनी एतत् पठतु अर्जुनः पृच्छति
एतानि वाक्यानि सावधानतया उच्चैः पठत परिशीलयत च अर्जुनः पृच्छति मूर्खः शोचति अग्निः ज्वलति अहितः निन्दति एषा अभिनन्दति कृष्णः भासते पण्डितः मन्यते सूर्यः प्रकाशते श्रेयः विद्यते सः वर्तते एतेषु वाक्येषु क्रियापदेषु आत्मनेपदी धातूनां रूपाणि प्रयुक्तानि सन्ति एतानि सर्वाणि रूपाणि लट् लकारस्य प्रथमपुरुषैकवचनं रूपाणि
अत्र एतानि सर्वाणि परस्मैपदी धातु एतानि सर्वाणि आत्मनेपदी धातूनां रूपाणि परस्मैपदी धातूनां रूपाणि आत्मनेपदी धातूनां रूपाणि सो अत्र सेण्टेन्स् स्ट्रक्चर् इति वदामः खलु कथं वाक्यं लेखनीयम् इति तत्र भेदः नास्ति कृष्णः भाषते कृष्णः पृच्छति अपि वक्तुं शक्नुमः सो अत्र नूतनविषयः नास्ति परन्तु अर्थे किमपि वक्तुं शक्नुमः चेत् वयं वृत् धातुम् उपयुज्य वक्तुम् इच्छामः चेत् अत्र आत्मनेपदी रूपमेव भवति वर्तति न भवति वर्तते एव मन्यति न भवति मन्यते एव परन्तु उभयपदिधातुः अस्ति चेत् रूपद्वयं भवति अस्तु वा अस्तु अवधेयम् अस्तु निर्मला भगिनी पठितुं शक्यते वा
क्रियापदस्य मूलं धातुः यथा पठति इत्यस्य क्रियापदस्य मूलं पट् इति धातुः धातवः त्रिविद्या परस्मैपदिना आत्मनेपदिना उभयपदिना च इति फट् लिक् क्रीड् मिल् गम् इत्यादय धातवः परस्मैपदिना वन्द् एद् लब् ईक्ष् लज् इत्यादयः धातवः आत्मनेपदिना परस्मैपदीनां धातूनां लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ति इति श्रूयते यथा पठति लिखति शोचति आत्मनेपदीनां धातूनां लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ते इति सूच्यते यथा वीक्षते लज्जते कम्पते उभयपदीनां तु धातूनां लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ठि ते एतदुभयमपि श्रूयते यथा करोति कुरुते याचति याचते जानाति जानीते
सम्यक् भगिनि अत्र एकमेव भगिनी अत्र अत्र सर्वत्र विसर्गः अस्ति इत्यादयः धातवः परस्मैपदिनः इति एतदेव सो अत्र अवगच्छन्ति इति मन्ये परस्मैपदि धातुः अस्ति चेत् ति इति भवति केचन धातवः परस्मैपदि धातवः एव पठति पट् पट् धातु उपयुज्य पठते इति न वक्तुं शक्नुमः पठति एव आत्मनेपदि धातु इति भवति चेत् एव वीक्षते लज्जते कम्पते इति वक्तुं शक्नुमः वयम् अस्तु अतः कानिचित् क्रियापदरूपाणि सन्ति एतेषु परस्मैपदिधातूनाम् आत्मनेपदिधातूनां च रूपाणि विचिन्नुत इत्युक्ते आत्मनेपदि वा परस्मैपदि वा इति वदतु इति चिनोतु मीन्स् सेलेक्ट् पश्यति परस्मैपदि वा आत्मनेपदि वा
परस्मैपदि
लज्जते
आत्मनेपदि
कामयते तिष्ठति वर्तते विद्यते अस्ति फलायते आत्मनेपदि वदति परस्मैपदि स्मरति परस्मैपदि सो अस्तु अहं चिन्तयामि बहु सुलभः इति परन्तु इदानीम् अर्थं जानीमः वयं पश्यति जानीमः लज्जते लज्जते टु बी एम्बेरस्ड् टु ब्लश् इति कामयते इच्छति तिष्ठति जानीमः टु स्टाण्ड् इति तिष्ठति टु स्टाण्ड् वर्तते अस्ति लेखनी वर्तते लेखनी अस्ति तादृशं विद्यते विद्यते लैक् अवेलेबल् अस्ति तदपि अस्ति इव अस्ति palayate.
Escape.
To flee from that. Escape. Run away. Vadati janimaha. Smarati janimaha. Smayate. हसति मन्दहासं करोति हसति अपि हसति अपि भाषते
वदति
पठति पठति यानि वदति पठति द्योतति
प्रकाशयति
प्रकाशते द्योत प्रकाशते कर्षति
to dig work hard to dig
no, attract
no to dig
to dig akarshanam
to lift
lift drag tadrisham to lift drag tadrisham astu snishyati
to love
to love
to love to get attached to something sneham स्नेहं दर्शयामः स्नाति
बेटिङ्ग्
टेक् अ शावर्
टु टेक् अ शावर् स्नानं करोति स्नाति स्पर्शति
टु
टच् कम्पते
टु
मूव् टु शेक् उदाहरणं वायुना पर्णं वृक्षे कम्पते म्रियते
टु
डै म्रियते अटति
रटनं करोति
रटति रटति वारं वारं वदति उदाहरणं वदते वन्दते वन्देते एवमेवमेवमेवं बहुवारं वदति रटति नयति जानीमः दिशति दर्शयति एवं भवतु इति अलोकेशन् इति वदामः खलु अलोकेट् दिशति जायते टु हेपन् आर् टु गिव् बर्त् लैक् दट् जायते तिष्ठति द्विवारम् आगच्छति तिष्ठति तिष्ठति ऊहते
अनुमानं करोति
ऊहं करोति ऊहं करोति कञ्जक्षर् खलु अहम् एतत् चिन्तयामि इति गाहते gahate means to penetrate it gahate modate
anandati
anandate
anandate anandam anubhavati gachati janimah ikshate ikshate means to see pashyati
pashyati
pashyati एतत् वयं कृतवन्तः इदानीं रूपाणि पश्यामः एदते एदेते एदन्ते एद् इत्युक्ते किम् अहं तत्र पश्यामि एकवारम् अहं विस्मृतवती एद् एद् इत्युक्ते किम् इति
to grow is okay to grow
praya
power
atra ai deva asti ed happiness edate to rise to
rise
rise asti samya edate edete edante अत्र सर्वत्र तथा एव भवति ते एते अन्ते से एथे द्वे
एधे अत्र अत्र ते एतत् न आगच्छति आवहे आमहे सह् धातु सहते सहेते सहन्ते सहसे सहेथे सहद्वे सहे सहावहे सहामहे अस्तु अग्रे अभ्यासेन ज्ञानं वर्धते सो अत्र वृद् धातु वर्धते इस् आक्चुलि वृद् धातु कथं भवति रूपाणि एकमेकं कुर्मः प्रथमं मिलित्वा कुर्मः सहते इव भवति वर्धते
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 वर्धते म्रियते कामात् क्रोधः जायते जायते इति विशेषरूपाणि भवन्ति अतः अग्रे पश्यामः इदानीं सुलभरूपाणि पश्यामः उत्पन्नः जीवः म्रियते म्रियते
म्रियन्ते म्रियसे म्रियते म्रियद्वे म्रिये म्रियावहे म्रियामहे
अस्तु सम्यक् अस्तु इदानीम् एकमेकं कुर्मः हस्तात् गाण्डीवं स्रंसते सविता भगिनी
आं भगिनि संसते संसेते संसन्ते संससे संसेथे संसध्वे संसे संसावहे संसामहे
सम्यक् भगिनि अस्तु भक्तः ईश्वरं भजते विष्णुमहोदय भजते
भजते भजेते भजन्ते मध्यमपुरुष भजसे भजेथे भजद्वे उत्तमपुरुष भजे भजावहे भजामहे
भजामहे अस्तु सुलभ एव खलु अस्तु श्रीनिवासमहोदय अग्रिम जीवः सुखं कामयते
कामयते कामयते कामयेते कामयन्ते कामयसे काम
कामयेथे
कामयेते कामद्वे कामे कामावहे कामामहे
कामयसे कामयेथे कामयद्वे अत्र
कामये कामये कामयावहे कामयामहे
कामयामहे सो एकवारं पश्यामः सो ऐ जस्ट् वाण्ट् टु मेक् श्योर् कामयते सो दर् इस् वन् वेरि नैस् सैट् अहं पूर्वमेव उक्तवती इति चिन्तयामि अष्टाध्यायी सो अहं चिन्तयामि काम नास्ति अत्र कामयते एवं लिखामि अस्तु कामयते कामयेते कामयन्ते कामयसे कामयेथे कामयद्वे कामये कामयावहे कामया महे सन्देहाः सन्ति चेत् अत्र पश्यन्तु अस्तु कल्पते शारदा भगिनि कल्पते
कल्पते कल्पेते कल्पन्ते कल्पसे कल्पेत् कल्पद्वे कल्पे कल्पावहे कल्पामहे
सम्यक् सुलभे एव अस्तु
What does it mean? Saha amritatvaya kalpate. He desires to be immortal, for immortality. Amritatvaya is chatvati.
For immortality. Saha amritatvaya kalpate. I'm not sure, Bhagini. Amritat.
I assumed amritam is for immortality.
Amritatvam. Amritatvam. So it's the tatvam which is amritam. Amritatvaya kalpate. So he's making arrangements, something like that. He's planning for amritatvam. Amritatvaya kalpate.
Dhanyavad.
स्थितप्रज्ञः किं भाषते अस्तु अग्रे का अस्ति जयश्री भगिनी वा
आं भगिनि भाषते भाषेथे भाषन्ते भाषसे भाषेथे भाषद्वे भाषे भाषावहे भाषामहे
सम्यक् अस्तु अग्रे स्थितप्रज्ञः किं भाषते मीन्स् वाट् डु दे से स्थितप्रज्ञः श्रद्धावान् ज्ञानं लभते वेरि पापुलर् वन् रैट् श्रद्धावान् ज्ञानं लभते लता भगिनि
आं भगिनि लभते लभेते लभन्ते मध्यमपुरुषः लभसे लभेथे लभद्वे उत्तमपुरुषः लभे लभावहे लभामहे
लभामहे अस्तु सम्यक् वीणा बेन् भगिनी अग्रे ईश्वरः सर्वत्र वर्तते वर्तते मीन्स् अस्ति वर्तते
वर्तते वर्तेति वर्तन्ति वर्तसि वर्तेति वर्तध्वे वर्ते वर्तावहे वर्तामहे
वर्तामहे अस्तु सम्यक् अग्रे अभिमन्युः चक्रव्यूहं वीक्षते
वीक्षते
एकनिमिषम् अग्रे का अस्ति इति पश्यामि धन्यवादः लता भगिनी वीणा बेन् भगिनी
वीक्षते वीक्षेते वीक्षन्ते वीक्षसे वीक्षेथे वीक्षद्वे वीक्षे वीक्षावहे वीक्षामहे
भवति एव अस्तु धन्यवादः अग्रे अग्रे उर्मिला भगिनी भीष्मः सर्वान् क्षमते
क्षमते क्षमेते क्षमन्ते क्षमसे क्षमेथे क्षमद्वे क्षमे क्षमावहे क्षमामहे
क्षमामहे बहु सुलभः एव खलु अभ्यासेन सम्यक् भवति अस्तु अग्रे सन्ध्या भगिनी कुन्ती कष्टं सहते
प्रथमपुरुषः सहते सहेते सहन्ते मध्यमपुरुषः सहसे सहेथे सहद्वे उत्तमपुरुषः सहे सहावहे सहामहे तत्रैव अस्ति भगिनि
आमाम् अस्तु अग्रिमं करोतु सञ्जयः युद्धम् अवलोकते
प्रथमपुरुषः अवलोकते अवलोकेते अवलोकन्ते मध्यमपुरुषः अवलोकसे अवलोकेथे अवलोकद्वे उत्तमपुरुषः अवलोके अवलोकावहे अवलोकामहे
सम्यक् अस्तु चम्पा चम्पा भगिनी कृष्णः अश्वान् सेवते
प्रथमपुरुषे सेवते सेवेते सेवन्ते मध्यमपुरुष सेवसे सेवेथे सेवद्वे उत्तमपुरुष सेवे सेवावहे सेवामहे
सम्यक् अस्तु अन्तिमं निर्मला भगिनी योद्धः युद्धार्थं त्वरते
प्रथमपुरुषः त्वरते त्वरेते त्वरन्ते मध्यमपुरुषः त्वरसे त्वरेथे त्वरद्वे उत्तमपुरुषः त्वरे त्वरावहे त्वरामहे
त्वरामहे अस्तु सम्यक् अस्तु अग्रिमं किम् अस्ति किञ्चित् समयः अस्ति अस्तु एतेषु वाक्येषु परस्मैपदी क्रियापदानि प्रयुक्तानि सन्ति परस्मैपदी तत् समानार्थकानि आत्मनेपदी क्रियापदानि कोष्टके दत्तानि सन्ति ततः उचितं क्रियापदं चित्वा रिक्तस्थाने लिखत समानार्थकपदम् उदाहरणं वयं भारतमातरं प्रणमामः नमामः प्रणमामः वयं वयम् अस्ति चेत् रूपं किं भवति महे वन्दामहे इति वन्दामहे अत्र अस्ति तत् स्वीकृतवन्तः वयम् उत्तमपुरुष बहुवचनं वयं सो अत्र वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दद्वे वन्दे वन्दामहे वन्दावहे वन्दामहे एवम् अस्ति अस्तु अग्रिमम् ईश्वरः भक्तान् कष्टात् रक्षति
त्रायते
त्रायते सम्यक् रक्षति त्रायते त्रै धातु तत्र त्रै त्रायते त्रायेते त्रायन्ते त्रायसे त्रायेथे त्रायद्वे त्राये त्रायामहे अस्तु सम्यक् यूयं किं चिन्तयत्
मन्यद्वे
मध्यद्वे
मन्यद्वे मन्यद्वे सम्यक् मन्य मन्यद्वे त्वं युवां यूयं बहुवचनं मन्यद्वे अस्तु तौ आकाशं पश्यत
तौ आकाशौ पश्यते
ते
विक्षेते
द्विवचनं
विक्षते विक्षेते विक्षन्ते विक्षसे विक्षेथे विक्षद्वे विक्षे विक्षावहे विक्षामहे
सम्यक् युवां सत्यं वदतः
भाषेथे
भाषेथे सम्यक् भाषेथे भाषते भाषेते भाषन्ते भाषसे भाषेथे अस्तु पुनरेकवारं वयं कुर्मः इदानीं समयः अभवत् अत्र समापयामः वा अथवा कुर्मः उत्तमं बालिकाः चित्रं दृष्ट्वा तुष्यन्ति
मोदन्ते
सम्यक् अहं देवं प्रणमामि
वन्दे अहं देवं वन्दे
वन्दे देवं वन्दे वयं विश्वशान्तिम् इच्छामः
कामयामहे
कामयामहे ते मार्गे सन्ति
मार्गे
वर्तन्ते
वर्तन्ते त्वं कीर्तिं प्राप्नोषि
लभसे त्वं कीर्तिं लभसे
लभसे अस्तु एतत् पर्यन्तं कृतवन्तः अग्रिमवर्गे अग्रे गच्छामः अस्तु अत्र 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 एव आत्मनेपदी धातु अस्ति अग्रे पुनरेकवारं लोट्लकारं भवति परस्मैपदी आत्मनेपदी मिश्रणं कृत्वा एव भवति अस्तु भगिनी वदतु प्रश्नः वा
न भगिनि प्रेषयतु टेबल्
प्रेषयामि अस्तु इदानीं शान्तिमन्त्रम् उक्त्वा समापयामि ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः
धन्यवादः